इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। भारतीय रिजर्व बैंक इत्याख्येन राष्ट्रिय महाकोषेण रेपो दराख्ये प्रतिदान परिमितौ सप्तमवारं अपरिवर्तितं स्थापयित्वा सार्ध षड् प्रतिशतमेव कृतम् अस्ति। अस्मिन् वित्तवर्षे विकास परिमितिः 7% संभाविता वर्तते। निर्वाचनायोगेन अद्य 11 राज्यानां नगर निगमायुक्तैः जनपदस्तरीयैः निर्वाचनाधिकारिभिः सह उपवेशनम् एकं विहितम्। निर्दिष्टं च यत् मतदानकेन्द्र स्तरीय कार्ययोजनायाः सज्जता भवेदिति। राजस्थानस्य चुरुक्षेत्रे भाजपेति दलस्य प्रमुखनेत्रा प्रधानमन्त्रिणा च श्रीनरेन्द्रमोदिना नैर्वाचनिका सभा सम्बोधिता। कांग्रेसदलेन अद्य लोकसभा निर्वाचनाय स्वकीय दलस्य घोषणापत्रं प्रख्यापितम्, यत्र उक्तमस्ति यत् 23 कोटिजनाः निर्धनतायाः सीमातः उपरि नेष्यन्ते। अपि च आईपीएल प्रतिस्पर्धायाम् अद्य हैदराबादनगरे सनराइजर्स हैदराबाद चेन्नई सुपर किंग्स दलयोर्मध्ये क्रिकेट प्रतिस्पर्धा भविष्यति। अथ वार्ताः विशदीकृत्य। भारतीय रिजर्व बैंक इत्याख्येन राष्ट्रिय महाकोषेण रेपो दराख्ये प्रतिदान परिमितौ सप्तवारं अपरिवर्तितं स्थापयित्वा सार्ध षड् प्रतिशतमेव कृतम् अस्ति। वित्तकोषस्यास्य प्रमुखेण शक्तिकान्तदासेन अद्य द्वैमासिक मौद्रिक नीति विषयक घोषणायाम् उक्तं यत् अस्मिन् 7% उपभोक्तृ मूल्य सूचकांकश्च मुद्रास्फीति 4.25% स्थगनस्य संभावना वर्तते। तेनोक्तं यत् मार्च मासस्य 31 दिनांकं यावत् भारतस्य वैदेशिक मुद्रागार सर्वोच्चतमे स्थाने अस्ति, आहत्य च भण्डारेऽस्मिन् 6.5 प्राय कोटि डॉलर राशि समाकलितो अस्ति। निर्वाचनायोगेन अद्य तेषाम् 11 राज्यानां नगर निगमायुक्तैः जनपदस्तरीयैः निर्वाचनाधिकारिभिः सह उपवेशनं विहितम्, यत्र विगतेष् सामान्य निर्वाचनेष् अतिन्यूनं मतदानम् अभवत्। नवदिल्ल्यां मुख्य निर्वाचनायुक्तेन राजीव कुमारेण सह निर्वाचनायुक्तयोः ज्ञानेश कुमार सुखवीर सिंह संधू इत्यनयोः अध्यक्षतायाम् उपवेशनमिदम् आसीत्। उपवेशनावधौ मुख्य निर्वाचनायुक्तेन राजीव कुमारेण चयनित जनपदानां नगर निगमायुक्ताः जनपदस्तरीय नैर्वाचनिकाधिकारिणः निर्दिष्टाः यत्ते मतदातृ सहभागित्वं संवर्धयितुं व्यवहार परिवर्तनाय च मतकेन्द्रस्तरीय कार्ययोजनायाः सज्जतां कुर्वन्तु। अनेन प्रख्यापितं यत् नगर ग्राम क्षेत्रेभ्यः बहुविध रणनीतिक सज्जतायाः साधित क्षेत्राणाञ्च अनुसारेण योजनानां निर्माणमपि भवेदिति। मुख्य निर्वाचनायुक्तेन साधित पद्धत्या सह मतदातृन् प्रापणाय अल्पप्रतिशत मतदानयुतानां 15.25% ग्रामीण निर्वाचन क्षेत्राणां 1.50% नगरीय संसदीय निर्वाचन क्षेत्राणाञ्च अभिज्ञानं कृतम्। निर्वाचनायोग प्रमुखः अधिकारिणः प्रख्यापितवान् यत्ते अनया पद्धत्या कार्यं सम्पादयन्तु, येन हि मतदातृषु निर्वाचनरूपी लोकतान्त्रिक उत्सवे भागग्रहणस्य गौरवः समुत्पन्नो भवेत्। एतदर्थम् असौ त्रिस्तरीय प्रबन्धनानि आकारितवान्। प्रथमं मतदानकेन्द्रेषु स्थित मतदातृणां कृते सौविध्यानि यथा पंक्तिप्रबन्धनम्, द्वितीयं प्रचार प्रसारत्वेन सम्पर्क सम्बन्धयोः स्थापनम्, तृतीयं च हितधारकाणां समायोजन पुरस्सरं जनसंचेतनायै सहभागिता च। जम्मू कश्मीरं विहाय देशस्य अन्येभ्यः भागेभ्यः लोकसभा निर्वाचनस्य द्वितीय चरणस्य नामांकन पत्राणां निरीक्षणम् अद्य समारभते। तत्रैव जम्मू कश्मीरे नामांकन पत्राणां निरीक्षणं श्वो भविष्यति। द्वितीय चरणाय नामांकन प्रक्रिया ह्यः समाप्ता जाता। द्वितीय चरणेऽस्मिन् बाह्य मणिपुर लोकसभा निर्वाचन क्षेत्रेण सह 12 राज्येषु केन्द्रशासित प्रदेशेष्वपि निर्वाचनम् अस्य मासस्य 26 दिनांके भविष्यति। जम्मूकश्मीरे जम्मूकश्मीरं समेत्य समेषां राज्याणां केन्द्रशासित प्रदेशानां च प्रत्याशिनां सोमवासरं यावत् नाम प्रत्यावर्तनं कर्तुं शक्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राजस्थानस्य चुरुक्षेत्रे भाजपेति दलस्य प्रमुखनेत्रा प्रधानमन्त्रिणा च श्रीनरेन्द्रमोदिना नैर्वाचनिका सभा सम्बोधिता। अस्मिन् नैर्वाचनिक सम्मर्दे विभिन्नानां दलानां नेतारः सभापथसञ्चलनादीनां नेतृत्वं कुर्वन्तः सन्ति। अत्रावसरे प्रधानमन्त्रिणा मोदिना स्वस्य दलस्य लोकसभाप्रत्याशिनां समर्थनाय जनाः आवाहिताः। सः उक्तवान् यत् आराष्ट्रं सम्प्रति देशस्य प्रगतौ कार्यं कुरुते। अस्मिन् अभियाने सः राजस्थानस्य पुष्कर तीर्थं क्षेत्रं याति, यत्र सः नागौर अजमेरयोः प्रत्याशिन्योः प्रचारं विधास्यति। कर्णाटक राज्ये निर्वाचन साक्षरता समितिः निर्वाचने सहभागितया सम्बद्ध साक्षरतायाः संवर्धनस्य प्रचारं कृतवती। सुव्यवस्थित मतदात्री शिक्षा निर्वाचक सहभागिता सम्बन्धितस्य स्वीप इत्याख्यस्य कार्यक्रमस्य उद्देश्यं निर्वाचन सहभागित्वं वर्तते। आकाशवाण्या सह विशिष्ट संवादे स्वीप प्रमुख अधिकारी वीएस वस्त्रादः सूचितवान् यत् राज्येऽस्मिन् 25,000 निर्वाचन साक्षरता समितयः विभिन्न प्रतिस्पर्धानां माध्यमेन युवानः प्रशिक्षिताः जाताः। त्रिपुरायां निर्वाचनस्य आदर्श आचार संहितायाः उल्लंघनारोपे विशिष्ट आरक्षी अधिकारी अस्थायी रूपेण निलंबितः जातः। राज्य निर्वाचन विभागः प्रोदीरितवान् यत् असौ अधिकारी 28 मार्च मासे जाते एकस्य राजनीतिक दलस्य कार्यक्रमे भागं गृहीतवान्। कांग्रेस दलेन अद्य लोकसभा निर्वाचनाय स्वकीय दलस्य घोषणापत्रं प्रख्यापितम्। दलाध्यक्षः मल्लिकार्जुन खरगेः दलस्यास्य वरिष्ठ नेतृभ्यां सोनिया गांधी राहुल गांधीभ्यां च सह अस्य अद्य नवदिल्ल्याम् एतत् घोषणापत्रं प्रकाशितवान्। स्वीय घोषणापत्रे कांग्रेस दलेन आधारभूत संरचनानां विकासेन सह आगामि दशके निर्धनतां दूरीकर्तुं च जनाः आश्वासिताः। अनेन दलेन केन्द्रप्रशासने विभिन्नस्तरेषु स्वीकृतपदेषु प्रायशः 30,00,000 रिक्तस्थानानां प्रपूरणस्यापि वचनं प्रदत्तम्। अपि च प्रतिदिनं 400 रूप्यकाणां राष्ट्रिय न्यूनतम श्रमिक वृत्त्यवसरं प्रत्येकं निर्धनपरिवारेभ्यः प्रतिवर्षम् 1,00,000 रूप्यकाणि केन्द्रप्रशासनस्य पदरिक्तस्थानेषु महिलाभ्यः 50% आसनानाम् आरक्षणम् इत्यादीनि वचनानि अस्मिन् घोषणापत्रे प्रकाशितानि। लोकसभानिर्वाचनाय कांग्रेसदलद्वारा प्रसारिते घोषणापत्रविषये भाजपेति दलेन प्रोक्तम् यत् घोषणापत्रमिदं मिथ्यागारः अस्तीति। नवदिल्ल्यां वार्ताहरान् संसूचयन् दलप्रवक्त्रा सुधांशु त्रिवेदिना प्रोक्तं यत् घोषणापत्रमिदं मतदातॄन् भ्रामयितुं रचितम् अस्ति, यो हि कांग्रेसदलेन इतः पूर्वं रचितानि घोषणापत्राणि कदापि न पूरितानि। आईपीएल इति प्रतिस्पर्धायाम् अद्य हैदराबादनगरे सनराइजर्स हैदराबाद चेन्नई सुपर किंग्स दलयोर्मध्ये क्रिकेट प्रतिस्पर्धा भविष्यति। अस्याः प्रतिस्पर्धायाः प्रसारणं 7:30 भविष्यति। ह्यः जातायां प्रतिस्पर्धायां पंजाब किंग्स दलेन गुजरात टाइटन्स दलं अहमदाबादनगरस्य नरेन्द्र मोदी क्रीडांगणे 30 पराजितम् आसीत् इति वार्ताः।